एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा केपी शर्मा ओलीना सह मिलित्वा ह्यो नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कोरोना विषाणोः संक्रमणस्य जल विप्लव भूस्खलनयश्च सम्बन्धे ध्यानमाकर्षयत्। विंशत्यधिक शतस्य दिनानां परिपिधानस्य पश्चात् प्रधानमन्त्रिणा ओलिना सह मिलित्वा सभापतिः देउवा जलविप्लव भूस्खलनाभ्यां देशस्य विभिन्नेषु स्थानेषु बहवो जनाः मृताः विलुप्ताश्च शतशो गृहपरिवार विहीनाश्च सन्तीति हेतोः सर्वकारेण उद्धार सहायता पुनस्थापनानां कृते युद्धस्तरे कार्याणि विधातुम् अन्वरुणत्। कोरोना संक्रान्तानां जनानां संख्या प्रतिदिनं वर्धमाना स्थिति हेतोः परिपिधानस्य समाप्तेः पश्चात् उत्पन्नस्य समाह्वयस्य प्रतिकाराय विशेष रणनीतिं निर्मातुं सभापतिः देउवा अव्ययाचत इति नेपाली कांग्रेस दलस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत। सभापतिः देउवा कोरोना परीक्षणस्य सीमां वर्धयितुं सुरक्षणावासान् मापदण्डयुक्तान् निर्मातुं च सर्वकारेण ध्यानं न दत्तमिति उक्त्वा दुःखानुभूतिं प्राकटयत्। गतदिने अतिरिक्ताः 156 जनाः कोरोनामुक्ताः सन्तो गृहं प्रत्यावृताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः गतदिने विभिन्नेभ्यः एकान्तवास केन्द्रेभ्यः 155 जनैः स्वास्थ्यलाभ प्राप्तेः अनन्तरं नेपाले कोरोनामुक्तानां जनानां अद्यावधि समग्र संख्या 12,844 च प्राप्ता स्थिति अज्ञापयत। नेपाले कोरोनामुक्तानां जनानां अद्यावधि प्रतिशतं 10.93% वर्तते। मन्त्रालयस्य अनुसारेण सम्प्रति आराष्ट्रं 5,7,58 च सक्रियाः कोरोना संक्रान्ताः जनाः सन्ति। अतिरिक्तेषु 147 च जनेषु गतदिने संक्रमणं पुष्टिभूतमस्ति। ह्य अतिरिक्तस्य एकस्य पुरुषस्य संक्रमणेन मृत्युः अनन्तरं नेपाले कोरोना संक्रमणेन मृतानां जनानां संख्या 43 प्राप्तास्ति। वीरगंज वर्तिनो माई स्थानस्य 70-वर्षीयः पुरुषः नारायणी चिकित्सालये उपचारस्य क्रमे ह्यो मृतो वर्तते। परिपिधानस्य कारणेन आसन्न मासचतुष्टये असञ्चालितानि सार्वजनिक यातायात साधनानि पुनः सञ्चालने आनीतानि सन्ति। नेपाले यातायात व्यवसाय राष्ट्रिय महासंघेन गतदिने अर्धसंख्यायं यातायात साधनानि सञ्चालने आनीतानि सन्ति इति ज्ञापितमस्ति। सर्वकारेण श्रावण मासावधि जनपदस्य अभ्यन्तरे यातायात साधनानि चालयितुम् अनुमतिः प्रदत्तास्ति। यातायात व्यवसाय संघेन च सर्वेषु मार्गेषु साधनानि चालयितुम् यातायात व्यवस्था विभागः अभियाचितो वर्तते। दैलेख जनपदस्य ठाटी काँध ग्रामपालिकायां 16 जनेषु कोरोना संक्रमणस्य पुष्टे अनन्तरं जनपद प्रशासन कार्यालयेन ग्रामपालिकायां निषेधाज्ञा क्रियान्विताऽस्ति। ग्रामपालिकायां परह्यः 16 जनेषु कोरोना संक्रमणस्य पुष्टे पश्चात् गतदिने स्थानीय प्रशासनेन निषेधाज्ञा क्रियान्विता वर्तते। वीरगंज पथलैया वर्तिनी औद्योगिक क्षेत्र वर्तिन्यां मारुति फार्मास्यूटिकल्स प्राली इति औषधोत्पादनशालायां कार्यरतेषु 7 श्रमिकेषु कोरोना संक्रमणस्य पुष्टे पश्चात् गतदिने स्थानीय प्रशासनेन उद्योग परिपिदापितोऽस्ति। बारा जनपदस्य परवानीपुरस्य पञ्चमवडा क्षेत्रस्थितः उद्योगोऽसौ पर्सा जनपदोद्योग स्वास्थ्य कार्यालयस्य परामर्शने पर्सा जनपद प्रशासन कार्यालयेन परिपिदापितोऽस्तीति पर्सा जनपदस्य सहायक प्रमुख जनपदाधिकारी ललित कुमार बस्नेतः अज्ञापयत्। गृहमन्त्री रामबहादुर थापा कथयति विपदां निवारणाय विकास नीतेः परिवर्तनम् आवश्यकं वर्तते। गृहमन्त्रालये ह्यो राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य कार्यकारी समितेः उपवेशं सम्बोधयन् गृहमन्त्री थापा अगदत् जनधनयो क्षतेः वस्तुगतात्मगत कारणानाम् अन्वेषणम् आवश्यकम् अस्ति। मन्त्री थापा विपदां घटनासु तात्कालिक रूपेण उद्धारस्य दीर्घकालिक रूपेण पुनर्निर्माणस्य च कार्येषु तीव्रता प्रदानाय बलम् अददात्। उपवेश्य गृहमन्त्री थापा विपद्भिः प्रापितायाः क्षतेर्विवरणम् विपदक्षेत्रेषु पुनर्निर्माण योजना कार्यक्रमाणाम् आयव्ययकस्य च संरचनां च आनेतुं समितेः सदस्यान् निरदिशत्। नेपाली सेनाया अविरल वृष्टेः कारणेन देशस्य विभिन्नेषु भागेषु दुरापन्नाभिः जल विप्लव भूस्खलन जलमग्नताभिः प्रभावितेषु स्थानेषु अन्वेषणोद्धार कार्याणि सञ्चाल्यमानानि सन्तीति ज्ञापितं वर्तते। सैनिक जनसम्पर्क सूचना निर्देशनालयस्य अनुसारेण सेनया जल विप्लव भूस्खलनाभ्यां प्रभावितेषु क्षेत्रेषु जनशक्ति स्रोत साधनानि च परिचाल्य अन्वेषणोद्धार सहायता वितरण कार्याणि सञ्चाल्यमानानि सन्ति। नेपाल राष्ट्र कोषागारेण कोषागाराणां वित्तीय संस्थानां च सर्वे शाखा कार्यालयाः सत्त प्रणालीं निरस्य नियमित रूपेण सञ्चालनाय निर्दिष्टाः सन्ति। राष्ट्र कोषागारेण ह्य कोषागारेभ्यो वित्तीय संस्थाभ्यश्च परिपत्राणि सम्प्रेष्य सम्पूर्ण स्वास्थ्य सुरक्षां पूर्णतः परिपाल्य जनसम्मर्दस्य निवारणत्वेन दूरीं संस्थाप्य च कार्यालयान् सञ्चालयितुं निर्दिष्टं वर्तते। विश्वकोषेण नेपालस्य वर्तमानार्थिक वर्षस्य आर्थिक वृद्ध्यनुपातः 10.2% एव भविष्यति इति प्रक्षेपणं कृतमस्ति। कोषागारेण पश्चात्तन समये प्रकाशितेन नेपाल विकासात् द्यवधिक विवरणस्य अध्ययन प्रतिवेदनेन कोविड 19 एतस्य संक्रमणस्य च संकटात् रक्षणाय क्रियान्वितेन परिपिधानेन आर्थिक वृद्धिः न्यूना भविष्यति इति ज्ञापितं वर्तते। झापा जनपदस्य भद्रपुर नगरपालिकायां जलमय क्षेत्रे निर्मितस्य गर्तस्य जले निमज्य ह्यो बालकत्रय मृतमस्ति। भद्रपुर नगरपालिकाया द्वितीयवडा क्षेत्रस्य पृथ्वीनगर स्थिते कमल धाप पर्यटन जलमय क्षेत्रे निर्मिते गर्ते मत्स्य मारणक्रमे निमज्य स्थानीय 10 वर्षीय अंकुश तामाङ 14 वर्षीय करण थामी 12 वर्षीय अर्जुन थामी च मृताः सन्ति इति झापा जनपद प्रहरी कार्यालयेन ज्ञापितमस्ति। इति समाचारः।